एस रेडियो नेपाल सम्प्रति समाचार श्रूयन्ताम् प्रवाचक उपेन्द्र दाहाल सत्तायाम् सहकार्यम् कुर्वद्भिः दलैः सर्वकारस्य न्यूनतम संयुक्त कार्यक्रमाणाम् निर्माणाय नेकपा एमाले दलस्य अध्यक्षम् केपी शर्मा ओलीनाम् संयोजकम् निर्धारयितुम् निर्णीतम् वर्तते। बालवाटारा वर्तिनी प्रधानमन्त्री निवासे सर्वकारस्य न्यूनतम संयुक्त कार्यक्रमाणाम् विषये विमर्शनाय ह्या उपविष्टेन सत्ता गठबन्धनस्य दलानाम् उपवेशेन संयोजके एमाले दलाध्यक्षम् ओलीनाम् निर्धारयितुम् निर्णीतमस्ति। उपवेशे सहभागी उप प्रधान गृहमन्त्री रवि लामिछाने न्यूनतम संयुक्त कार्यक्रमाणाम् निर्माणाय नेकपा एमाले दलस्य अध्यक्षस्य ओलिनो नेतृत्वे सर्वकारे सहभागीभ्यो दलेभ्य प्रतिदलम् एकस्य सदस्यस्य समावेशनत्वेन समितिम् संघटयितुम् निर्णीतमिति असूचयत। उप प्रधानमन्त्री लामिछाने पञ्चानाम् दिनानाम् अभ्यन्तरे सर्वकारस्य न्यूनतम संयुक्त कार्यक्रमान् आनेतुम् पूर्वकार्यम् विहितमस्तीति अवोचत। उपवेशे प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड नेकपा एमाले दलस्य अध्यक्ष ओली राष्ट्रिय स्वतन्त्र दलस्य अध्यक्ष लामिछाने राष्ट्रिय प्रजातन्त्र दलस्य अध्यक्ष राजेन्द्र लिङ्देन च सहभागिनः आसन्। भारत सर्वकारः नेपाले सम्प्रत्येव संगठितेन सर्वकारेण सह मिलित्वा कार्यं कर्तुं तत्परोस्तीति स्पष्टीकरोति। भारतस्य विदेश मन्त्रालये ह्य आयोजिते नियमित पत्रकार सम्मेलने प्रवक्ता अरिन्दम वाक्ची देशद्वयस्य मध्ये विद्यमानं द्विपक्षीय सम्बन्धं सबलीकृत्य नवीन सर्वकारेण सह मिलित्वा कार्यं कर्तुं भारत सर्वकारः उत्सुको स्थिति अवोचत। नेपाले निर्वाचनानन्तरं संघटितस्य सर्वकारस्य राजनीतिक परिस्थितेश्च विषये संचारकर्मिणो जिज्ञासाम् उत्तरयन् प्रवक्ता वाक्ची नेपालस्य नवीन सर्वकारेण सह द्विपक्षीय सम्बन्धस्य इतोपि सबलीकरणस्य पक्षे स्थितमस्तीति अवोचत। असौ द्वयोर्देशयोर्मध्ये विद्यमानाय अद्वितीय सांस्कृतिक सम्बन्धाय प्रोत्साहन प्रदान पुरस्सरं मिलित्वा कार्यं कर्तुम् अपेक्षितं द्विपक्षीय सम्बन्धस्य प्रवर्धनस्य विषये कापि न्यूनता च निवार्यते इत्यभासत। प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डेन सह नेपालस्य कृते संयुक्त राज्य अमेरिका देशस्य राजदूत डीन आर थुप्सन ह्य शिष्टाचार मेलवार्ताम् व्यददात्। बालवाटार स्थिते प्रधानमन्त्री निवासे सम्पन्ने तस्मिन् मेलने अनयोर्मध्ये देशद्वयस्य द्विपक्षीय हितस्य विविध विषयेषु वार्ता अभवदिति प्रधानमन्त्रिणः सचिवालयो ज्ञापयति। तदवसरे अमेरिका देशीयो राजदूता थुप्सन प्रधानमन्त्रीपदे नियुक्तिम् आलक्ष्य प्रचण्डाय वर्धापनम् प्रादात्। गृह मन्त्रालयेन सुरक्षा निकायानाम् पदाधिकारिभिः कूटनीतिक नियोगानाम् राजनीतिक दलानाम् वा कार्यालयान् गन्तुम् नेतृत्वैः सह मेलवार्ताम् विधातुञ्च विभागीय स्वीकृतिः ग्रहणीयेति निर्णयः विहितो वर्तते। मन्त्रालयेन ह्य विज्ञप्तिम् प्रकाश्य शान्ति सुरक्षायाः सुव्यवस्थायाश्च प्रमुखदायित्वम् निर्वहद्भिः सुरक्षा निकायानाम् पदाधिकारिभिः मेलवार्तायाः कृते स्पष्टतया प्रयोजनम् विज्ञाप्य विभागीय स्वीकृतिः ग्रहणीयेति निर्णय विहितो वर्तते। मन्त्रालयस्य एवं निर्णयस्य प्रभावकारिणे क्रियान्वयनाय अनुगमनम् सम्बद्ध संघटनानाम् प्रमुखैः विधातव्यमिति मन्त्रालयस्य सहसचिवः प्रवक्ता च फणीन्द्रमणि पोखरेलः ज्ञापितवान्। गृहमन्त्रालयस्य निर्देशनस्य विपरीततया कार्यविहिते विधेरनुसारेण अनुशासनात्मकम् दण्डनम् विधास्यते इति च विज्ञप्तौ उल्लिखितमस्ति। तमु नाम्ना गुरूङ समुदायेन महत्वपूर्ण सांस्कृतिक तमु ल्होसार पर्वोत्सव अद्य समायोज्यमानो वर्तते। ल्हो इत्यस्य अर्थ वर्षम् सार इत्यस्य च अर्थ नवीन अस्ति इत्यतः ल्होसार पदस्य अर्थ नवीन वर्षम् भवति। वर्षस्य दीर्घतमायाः रात्र्याः अनन्तरम् आगतम् दिनम् नवीन वर्षम् मत्वा पौषस्य पञ्चदशे दिवसे ल्होसार पदोत्सवस्य समायोजनस्य परम्परा स्थापितेति संस्कृतिविदाम् धारणा वर्तते। समुदायस्य जनाः नूतन वर्षम् परम्परागत रूपेण सातिशयम् हर्षोल्लासेन परिवारेण सम्बन्धिजनैः इष्टमित्रैश्च सह मिलित्वा सम्मानयन्ति। उपलक्ष्यस्मिन् शुभकामना सन्देशम् ददति राष्ट्रपतिः विद्यादेवी भण्डारी। तमुल्लोसार पर्व पारस्परिक विश्वासस्य एकतायाश्च भावनामभिवाद्य सभ्यस्य सुसंस्कृतस्य समुन्नतस्य च राष्ट्रस्य निर्माणाय सर्वान् प्रेरयतु इति कामयते। उपराष्ट्रपतिना नन्दबहादुर पुन इत्यनेन प्रदत्ते शुभकामना सन्देशे नवीन सर्वकार राष्ट्रस्य सुशासनाय गुणस्तरीय सेवा प्रवाहाय जनसुरक्षायै तीव्रम आर्थिक विकासाय भौतिक पूर्वाधाराणाम निर्माणाय समग्र राष्ट्रस्य समृद्धये च द्रुतगत्या कार्यं विदधातीति विश्वास व्यक्तो वर्तते। प्रधानमन्त्रिणा पुष्पकमलदाहाल प्रचण्डेन प्रदत्ते शुभकामना सन्देशे विविधताया अभ्यन्तरे एकता सामाजिक सद्भावश्च अस्माकं सांस्कृतिकाभ्यासस्य अनुसरण योग्यम् उदाहरणमस्तीति उक्तं वर्तते। प्रधानमन्त्री दाहाल स्वस्य सन्देशे सद्भावस्य एकतायाश्च प्रवर्धकस्य विशिष्ट पर्वण रूपेण ल्होसार पर्व संस्थापितमस्तीति उल्लिखति। प्रधानमन्त्रिणा दाहालेन सन्देशे अनेन पर्वणा समेषां नेपालीनां मध्ये पारस्परिक सम्बन्ध सुदृढीक्रियते इति विश्वास व्यक्तोऽस्ति। स्वतन्त्र सांसदस्य प्रभुशाहस्य नेतृत्वे नवीनम् आम जनमत पार्टी नामधेयम् दलम् संगठितम् वर्तते। काष्ठमण्डपे गतदिने सम्पन्नेन मेलनेन सांसदस्य शाहस्य अध्यक्षतायाम् एकपञ्चाशत् सदस्यीया तदर्थ समिति संगठिता स्थिति दलेन प्रकाशितायाम् विज्ञप्तो ज्ञापितम् वर्तते। दलस्य प्रदेशाध्यक्षस्य सचिवस्य प्रभारिणश्च दायित्वमपि निर्धारितमस्ति। नवनियुक्त महान्यायाधिवक्ता डाक्टर दिनमणि पोखरेल पदगोपनीयतयो शपथम अगृह्णात। शीतल निवासवर्तिनी राष्ट्रपति कार्यालये ह्य आयोजिते समारोहे राष्ट्रपतेः विद्यादेवी भण्डारिणः प्रधानमन्त्रिणः पुष्पकमलदाहाल प्रचण्डस्य च उपस्थितौ कार्यवाहक प्रधान न्यायाधीश हरिकृष्ण कार्की डाक्टर पोखरेलम् शपथम अग्राहयत। नेकपा एमाले दलात राष्ट्रिय सभाया संसदीय दलस्य नेतारी देवेन्द्र दाहाल मनोनीतो वर्तते। एमाले दलस्य अध्यक्षेण केपी शर्मा ओलिना एमाले संघीय संसदीय दलस्य सप्तसप्तत्युत्तर द्विसहस्रतम विक्रम वर्षीय विधानस्य अनुसारेण दाहाल संसदीय दलस्य नेता मनोनीतो वर्तते। एतत्पूर्व राष्ट्रिय सभायाम् एमाले संसदीय दलस्य नेता खिमलाल भट्टराई आसीत्। मधेस प्रदेश सभाया ज्येष्ठ सदस्येन गोविन्द बहादुर न्यौपाने विधेयन पदगोपनीयतयो शपथ गृहीतोऽस्ति। प्रदेश प्रमुखेण हरिशंकर मिश्रेण न्यौपाने ह्य शपथेन प्रतिज्ञापितो वर्तते। नेकपा एकीकृत समाजवादी दलस्य पक्षत सप्तरी जनपदस्य चतुर्थ निर्वाचन क्षेत्रस्य क निर्वाचन क्षेत्रात् निर्वाचित न्यौपाने सप्तोत्तर शत सदस्यीय प्रदेश सभायां ज्येष्ठ सदस्यो वर्तते। ज्येष्ठ सदस्येन न्यौपाने विधेयन अद्य अवशिष्ट प्रदेश सभाया सदस्येभ्य पदगोपनीयतयो शपथेन प्रतिज्ञापनस्य कार्यक्रमो वर्तते। बागमती प्रदेश सभाया ज्येष्ठ सदस्येन रामप्रसाद ढुंगाना विधेयन प्रदेश सभाया नवनिर्वाचिता सदस्या ह्य पदगोपनीयतयो शपथेन प्रतिज्ञापिता सन्ति। बागमती प्रदेश सभायां दशोत्तर शतम् सदस्या वर्तन्ते। मधेस प्रदेशे नेपाली कांग्रेस संसदीय दलस्य नेतारी कृष्ण प्रसाद यादव निर्वाचितो वर्तते। संसदीय दलस्य नेतृश्चयनाय ह्य विहिते मतदाने कृष्ण प्रसाद यादवेन अष्टादश मतानि प्राप्तानि आसन्। अस्य प्रतिद्वन्दिना राम सरोज यादवेन च चत्वारि मतानि प्राप्तानि इति निर्वाचन समितेः संयोजक चन्द्रशेखर यादव ज्ञापयति। मधेस प्रदेश सभायां नेपाली कांग्रेस दलस्य द्वाविंशति प्रदेश सभा सदस्या वर्तन्ते।